मुख्य तमाम नाम जो मैं शराब कृष्ण मात्र हम सब पर रखने का ही नहीं रहा मित्र नास्तिक तीसरी भाग जगह व्याकरण सिद्धांत को हम भी हिंदे रखते हैं सर्वे जानती भक्तवती दीक्षित अत्यय का व्याकरण सिद्धांत कौमुदी इत्येषः ग्रंथः भवतां पाठ्यक्रमे विद्यते व्याकरण सिद्धांत कौमुदी इति ग्रंथस्य नाम तस्य कर्ता अस्ति भक्तवती दीक्षितः सप्तः विषये कृतेः विषये च किञ्चिदिव जानीमः आदौ अनन्तरम् आदौ व्याकरणस्य विषये पूर्व मंगलश्लोक अध्येतव्य मंगलादी मंगलमध्या मंगलाता शास्त्रा प्रथंते महाभाष्यकार वजती अस्माक संप्रदाये यद्य आरभ्य तत्सव मंगल मुखेन आरभ्य संप्रदाय व्याकरण संप्रदाये केचन श्लोका सी ये पाठस्य आदौ वा ग्रन्थाध्ययनस्य आदौ वा पठ्यन्ते तत्र प्रतिग्रन्थम् एकः मङ्गलश्लोकः कर्ता एव विरचितः भवति तदतिरिच्य केचन सामान्यश्लोकाः वैयाकरणैः मङ्गलश्लोकत्वेन पठ्यन्ते एषः कश्चन श्लोकः अस्ति यः दृश्यते इदानीम् अहमेकवारं पाठयामि सर्वे कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन महेश्वरात् पुरतमाम्नायम् अधिगम्य कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः इति श्लोकस्य अन्वयः महाभजनीयः श्लोकम् पाणिनेः स्तुतिः पाणिनिः शास्त्रप्रवर्तयिता व्याकरणशास्त्रस्य मूलभूतः मुनिः पाणिनिः अतः आदौ तस्य स्तुतिः क्रियते येन पाणिनिना इत्यत्र अन्वयः येन महेश्वरात् परमेश्वरस्य अनुग्रहात् अक्षरसमाम्नायम् अधिगम्य अक्षरसमाम्नायः वर्णसमाम्नायः एतत् सर्वं माहेश्वरसूत्राणां नाम सर्वेपि माहेश्वरसूत्रविषये जानीयुः काचन कथा विद्यते यत् महेश्वरः स्वस्य भक्तानादेन चतुर्दशसूत्राणि पाणिनये अनुजग्राह इति प्रतीतिः विद्यते ऐ ओन् ऋत इत्यादि रीत्या माहेश्वराणि सूत्राणि वस्तुतः संस्कृतभाषायाः या वर्णमाला विद्यते सा एव सूत्ररूपेण निबद्धा अस्ति सः अक्षरसमाम्नायः नाम अक्षराणां समूहः वर्णसमूहः आम्नायः नाम वस्तुतः वेदः वेदसदृशः महेश्वरात् एव आगतत्वात् वेदसदृशत्वम् अस्ति माहेश्वरसूत्राणामपि इति वदन्ति तादृशम् अक्षरसमाम्नायम् अधिगम्य प्राप्य कृत्स्नं व्याकरणं कृत्स्नं पूर्णं व्याकरणं प्रोक्तम् येन पाणिनिना महेश्वरस्य अनुग्रहात् वर्णसमाम्नायं प्राप्य पूर्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः तादृशाय पाणिनिमहर्षये नमस्कारः इति प्रथमश्लोकः एषः प्रथमः मङ्गलश्लोकः द्वितीयः श्लोकः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मैत्रीम् पुनः अहं पाठयामि भवन्तः अनुत्तरयन्तु वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिं सूत्रकारं च जाना ढूंढते हैं एक प्रेम, मुनित्रयम् प्रणतः अस्मि। व्याकरण शास्त्रे आचार्य भूताः त्रयः महर्षयः, सूत्रकारः पाणिनिः, भाष्यकारः वररुचिः, भाष्यकारः परञ्जलिः। अस्माकं शास्त्रस्य मूलभूताः पुरुषाः एते त्रयः एव, तस्मात् आदौ एतेषामपि स्तुतिः क्रियते। अत्र सूत्रकारं पाणिनिः, पाणिनिना विरचितानि सूत्राणि, किं नाम सूत्रम् इति अनन्तरं पश्यामः। पाणिनिः सूत्रकारः, वाक्यकारः अथवा वार्तिककारः, वार्तिककारः इत्येव प्रसिद्धं नाम अस्ति। वररुचि महर्षिणा वार्तिकानि विरचितानि, अनन्तरं पतञ्जलिमहर्षिः येन महाभाष्यं विरचितम्। सूत्र वार्तिक भाष्य दीज आर द थ्री फंडामेंटल कॉम्पोनेंट्स ऑफ व्याकरण शास्त्र। अनंतर काले यद्यपि शास्त्र शास्त्रम विरचितम अथवा शास्त्र ग्रंथाः रचिताः, तेषां सर्वेषां आधारः भवति एतेषां मुनीनां, त्रयाणां मुनीनां ग्रंथः। अर्थात् पाणिनिना अष्टाध्यायी इति सूत्रग्रन्थः रचितः, अष्टाध्याय्याः सूत्राणाम् उपरि वररुचिना वार्तिकानि विरचितानि, सूत्रम् वार्तिकम् च व्याख्यातवान् भाष्यकारः पतञ्जलिः। सो टुगेदर् दीस् फार्म् द फण्डमेण्टल् कार्पस् आफ् नालेज् फार् व्याकरणशास्त्रम्। So this shloka is the symbol of showing our respect to these three acharyas. Astutaha Kaumudyaha Mangalashlokaha Bhavati Ayam Shlokaha. Bhattoji Dikshitena Vyakarana Siddhanta Kaumudyaha Adau Virachitaha Ayam Shlokaha. Munitrayam Namaskritya वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। इयं वैयाकरणसिद्धान्तकौमुदी विरच्यते इति द्वितीयार्थस्य अन्वयः। इयं नाम या इतः परं ग्रन्थरूपेण क्रियते, मनसि एव या इदानीमेव विद्यते, तादृशी वैयाकरणसिद्धान्तकौमुदी, वैयाकरणसिद्धान्तकौमुदी इति ग्रन्थस्य नाम। तादृशः ग्रन्थः विरच्यते, केन विरच्यते इति श्लोकेनोक्तं, मया विरच्यते इति अध्याहारः क्रियते। ग्रन्थतत्र एव अस्य श्लोकस्यापि विरचितत्वात् मया भट्टोजीदीक्षितेन इयं वैयाकरणसिद्धान्तकौमुदी तन्नामकः ग्रन्थः विरच्यते। मुनित्रयं नमस्कृत्य, मुनित्रयम् अधुनैव अस्माभिः अपि नमस्कारः कृतः। पाणिनि कात्यायनः, कात्यायनः इति वररुचेः अपरं नाम। कात्यायन इस् आल्सो काल्ड् वररुचि, बोत् आफ् देम् आर् द सेम् पर्सन्। सो पाणिनि कात्यायन पतञ्जलीन् नमस्कृत्य तदुक्तीः परिभाव्य, तदुक्तीः तेषाम् उक्तीः, तेषाम् वचनानि सूत्रवार्तिकभाष्येषु तेन मुनित्रयेण यद् उक्तम् तत्सर्वम् सम्यक् विचिन्त्य, परिभाव्य इत्यस्य विचिन्त्य, सम्यक् विचिन्त्य इयम् वैयाकरणसिद्धान्तकौमुदी विरच्यते। So the point Dikshita is trying to make here is Vayyakarana Siddhanta Kaumuni. Vayyakarana Ayam Ye Siddhanta Ha Deva Sindhante Pratipadyante Iti Eka Satcha Ha Siddhanta Pratipadane Satya Kim Kaha Adhikara Ha Ityate Tadeva Munitrayam Namaskritya Dadukti Paribhavya Munitrayasya Vatananyeva Samyak Alodhya तैः यदुक्तम् अथवा ये ये सिद्धान्ताः प्रतिपादिताः ते एव मयापि अस्मिन् ग्रन्थे प्रतिपाद्यन्ते इति भट्टोजीदीक्षितैः ग्रन्थस्यादौ प्रतिज्ञायते। सो वैयाकरणसिद्धान्तकौमुदी इति वस्तुतः सिद्धान्तकौमुदी इत्येव प्रसिद्धा, यद्यपि अयं प्रक्रियाग्रन्थः इत्येव प्रसिद्धः। व्याकरणशास्त्रे विविधाः ग्रन्थाः दृश्यन्ते प्रक्रियाग्रन्थाः तथा प्रमेयग्रन्थाः इति उच्यन्ते. प्रक्रियाग्रन्थाः इति यत्र शब्दानां प्रक्रियायाः महत्त्वं दीयते अथवा प्रक्रियानिर्वाहार्थं ये ग्रन्थाः विरचिताः ते प्रक्रियाग्रन्थाः इति उच्यन्ते. यथा लघुसिद्धान्तकौमुदी अथवा तदेव प्रक्रियाकारकत्वं प्रक्रियाकौमुदी इति बहवः सन्ति ग्रन्थाः. ते सर्वे प्रक्रियाग्रन्थाः इति उच्यन्ते. तथैव प्रमेयग्रन्थाः इत्यपि सन्ति. यत्र प्रक्रियायाः विचारापेक्षया प्रमेयभागस्य अर्थात् सिद्धान्तानां सूत्रार्थस्य अथवा कश्चन स्फोटः इत्यादीनां सैद्धान्तिकविचाराणां चर्चा क्रियते. वीक्षितैः सिद्धान्तकौमुदी प्रक्रियाग्रन्थरूपेण विरचिता इति सत्यं. प्रक्रियानिर्वाहार्थमेव सिद्धान्तकौमुदी विरचितः. तदर्थमेव तत्र सूत्राणां क्रमे परिवर्तनं सर्वं कृतं. तथापि अयं न केवलः प्रक्रियाग्रन्थः अर्थात् केवलं प्रक्रियायाः ज्ञानार्थं रचितः ग्रन्थः नास्ति. सिद्धान्तानाम् अवगमनार्थमेव विरचितः अयं ग्रन्थः. This is one normal misconception which people have, that the Siddhanta Kaumudi is just a prakriya grantha, that is, it is meant Siddhanta Kaumudi. Saha na kevalaha prakriya grantha. Siddhanta avagamanartha meva rasitaha grantha. Hindu Siddhanta ha विवरेण न उक्ताः. प्रमेयग्रन्थेषु किं क्रियते सिद्धान्तानां विषये एव विवरेण चर्चा क्रियते. अतः ज्ञायते अयं सिद्धान्तः अयं पूर्वपक्षः इत्यादि. सिद्धान्तकौमुद्यां बहुषु स्थलेषु तथा नास्ति. केवलं स्वस्य वचनैः एव दीक्षिताः सिद्धान्तान् प्रतिपादयन्ति. इनिशियली इट् इस् डिफिकल्ट् टु व्यू द कौमुदी एस् अ सिद्धान्तग्रन्थ. स्टडी गो अण्ड् स्टडी फर्दर् ग्रन्थास् आफ् व्याकरण रिलेट् दट् इट् इस् ट्रू द दीक्षित हस् पास्ड् सो मच् आफ् इन्फर्मेशन् इन् टु दिस् वेरि काम्पाक्ट् सेण्टेन्सेस् वेदर् इट् इस् अ सूत्रार्थ आर् सम् पूर्वपक्ष रचयति. दीक्षित सैज् इस् वेरि काम्पाक्ट् बट् एट् द सेम् टैम् इट् पास्ड् अ लाट् आफ् इन्फर्मेशन् इन् दि लिस्ट्. इदानीम् एते त्रयः मङ्गलश्लोकाः प्रत्येकं कक्षायाः आदौ अन्ते च उच्यन्ते मङ्गलार्थम् निर्विघ्नता सिद्धार्थं च. कोऽपि प्रश्नः अस्ति वा? डेलिवरि लैक् टु सम्थिङ्ग् बिगिनिङ्ग् कस्यापि कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. नो नीड् फार् एनी हेसिटेशन् एट् आल्. यदि मम वेगः अधिकः अस्ति इति भासते अथवा कोऽपि भागः नावगतः पृच्छन्तु. पुनः पुनः पृच्छन्तु. प्लीस् डोण्ट् हेसिटेट् बिकास् दट् विल् बी द लास् एन्टैर्ली टु युवर् सेल्फ्. कश्चन वर्गः अस्ति चेत् यु शुड् मेक् युर् बेस्ट् एफर्ट्स् टु make sure you are understanding. If you don't understand, you have all rights to interrupt at any time and ask. Sunita Bhagini Sachchati, Kashika iti kim iti. Kashika iti Vrittigrantha. So, Ashtadhyayaha and Sutra Nitanti, Sesham Arthaha Udahananita Diyante, Kashikaya Ashtadhyayaha Kramayaha. सिद्धान्तकौमुदी यथा अस्ति तथैव काशिका अपि. उभयत्र सूत्राणाम् अर्थः दीयते, सूत्राणाम् उदाहरणानि इति दीयन्ते, तस्य शास्त्रे च क्रियते. किन्तु खेदः एषः, काशिकायाम् अष्टाध्याय्याः यः सूत्रक्रमः स एव अनुसृतः. सिद्धान्तकौमुद्यां तु सूत्रक्रमे खेदः अस्ति. यथा अग्रे दृश्यते कथं सिद्धान्तकौमुद्याः कः विशेषः इति, तु मुख्यतया स एव खेदः. अभावपि वृत्तिग्रन्थाः अष्टाध्यायीक्रमे विद्यमानेषु वृत्तिग्रन्थेषु काशिका बहु प्रसिद्धा. तद्भिन्नेषु क्रमेषु सिद्धान्तकौमुदी अति ಸಂಸ್ಕೃತಿ ಸದಾಮಹಂ ವ್ಯಾಕರಣ ನಾಮಶಾಸ್ತ್ರ ಶೂಯತೆ ವ್ಯಾಕರಣ ನಾಮಹಂ ಇತಿ ಪ್ರಶ್ನಃ ವಸ್ತುತಃ ಭವತಾಂ ಪುಸ್ತಕೇಪಿ ಪೀಠಿಕಾಭಾಗಃ ಎವ ಅಸ್ತಿ ಏಕಃ ಪುಸ್ತಕಾತ್ಮಕಃ ಪೀಠಿಕಾಭಾಗಃ ಯತ್ರ ವ್ಯಾಕರಣಸ್ಯ ನಿಷ್ಪತ್ತಿ ವಿಷಯ ಪ್ರಯೋಜನ ವಿಷಯ ವೈಯಾಕರಣಾನಾಂ ವಿಷಯ ಬಹುಧಾ ದತ್ತಮಸ್ತಿ ಸಿದ್ಧ ತತ್ಸರ್ವಂ ಭವತ್ಸರೇವ ಪಠಿತುಂ ಶಕ್ಯತೆ ಇತ್ಯತಃ ಅಹಂ ತದ್ವಿಷಯೆ ನ ಪಾಠಯಾಮಿ ತಥಾಪಿ ವರ್ಗಾಣಾಂ ಆರಂಭಾರ್ಥಂ ಕಾಚನ ಪೀಠಿಕಾ ಅವಶ್ಯಕೀಯೇವ ಅತಃ ಯಸ್ಯತ್ ಜ್ಞಾತವ್ಯಮೇವ ವ್ಯಾಕರಣಶಾಸ್ತ್ರಸ್ಯ ಅಧ್ಯಯನವತ್ಸಾತ್ ತದೇವ ಮಯ ಉಪಸ್ಥಾಪ್ಯತೆ ಯತ್ ಭವತಃ ಪುಸ್ತಕೇಷು ಅಸ್ತಿ ತತ್ ಪಠಂತು ಕಶ್ಚನ ಸಂದೇಹಃ ಅಸ್ತಿ ಚೇತ್ ಪೃಚ್ಛಂತು ಕಿಂತು ತಸ್ಯ ಭಾಗಸ್ಯ ಪಾಠಂ ಅಹಂ ನ ಕರೋಮಿ ಇದಾನೀ ಕೇವಲಂ ಸಂಕ್ಷೇಪತೆಯ ಕಥ್ಯತೆ ಮಯ ಪೀಠಿಕಾ ರೂಪೇಣ ಇದು ಪೂರ್ಣತೆಯ ಪಾಠ ನ ಕ್ರಿಯತೆ ಪೀಠಿಕಾ ಭಾಗಸ್ಯ ವ್ಯಾಕರಣ ಶಬ್ದಸ್ಯ ಕಾ ನಿಷ್ಪತ್ತಿ ವ್ಯಾಕರಣ ನಾಮ ಕಿಂ ಇತಿ ಪ್ರಶ್ನಃ ವಿ ಆ ಕೃ ವಿ ಆ ಇತಿ ಉಪಸರ್ಗದ್ವಯ ಪೂರ್ವಕಾತ್ ಕೃ ಧಾತುವಃ ನಿಷ್ಪನ್ನಃ ವ್ಯಾಕರಣ ಶಬ್ದಃ ವ್ಯಾಕರಣ ನಾಮ ಕಿಂ ನಿಷ್ಪಾದನಂ ಇತ್ಯೇವ ವ್ಯಾಕ್ರಿಯಂತೆ ನಿಷ್ಪಾದ್ಯಂತೆ ಶಬ್ದಾಃ ಅನೇನ ಇತಿ ವ್ಯಾಕರಣಂ ವ್ಯಾಕರಣಂ ಇಸ್ ದಟ್ ವಿಚ್ ಕ್ಯಾನ್ ಬಿ ಯೂಸ್ ಟು derive words. ನಿಷ್ಪಾದನಂ ಇತ್ಯುಕ್ತೆ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯ ವಿಭಾಗದ್ವಾರ ಶಬ್ದಾನಾಂ ವ್ಯುತ್ಪತ್ತಿ ದರ್ಶನಂ ಇತ್ಯರ್ಥಃ ವ್ಯಾಕರಣಂ ಅಥವಾ ನಿಷ್ಪಾದನಂ ನಾಮ ಇದಾನೀ ರಾಮಃ ಇತಿ ಶಬ್ದಃ ಅಸ್ತಿ ರಾಮಃ ಇತ್ಯುಕ್ತೆ ಕಥಂ ತಸ್ಯ ನಿಷ್ಪಾದನಂ ಆದೌ ರಾಮ ಇತಿ ಅಕಾರಾಂತಂ ಪ್ರಾತಿಪದಿಕಂ ತಸ್ಮಾತ್ ಪ್ರಥಮಾವಿಭಕ್ತೌ ಏಕವಚನೆ ತು ಪ್ರತ್ಯಯಃ ಕ್ರಿಯತೆ ಇತಿ ಪ್ರಥಮಂ ಸೋಪಾನಂ ಪುನಃ ರಾಮ ಇತ್ಯಸ್ತಿ ತಸ್ಯ ಕಥಂ ನಿಷ್ಪತ್ತಿಃ ಶ್ರಮ ಕ್ರೀಡಾಯಾಂ ಇತಿ ಧಾತುಃ ತಸ್ಮಾತ್ ಘನಿ ಪ್ರತ್ಯಯಃ ಕ್ರಿಯತೆ ತೇನ ರಾಮ ಇತಿ ಪ್ರಾತಿಪದಿಕಂ ಉತ್ಪಾದ್ಯತೆ ತಸ್ಮಾತ್ ಪ್ರಾತಿಪದಿಕಾತ್ ಸು ಪ್ರತ್ಯಯೇ ಕೃತೆ ರಾಮಃ ಇತಿ ರೂಪಂ ಇಯಂ ಪ್ರಕ್ರಿಯಾ ಯದಸ್ತಿ ತದೇವ ನಿಷ್ಪಾದನಂ ಇತ್ಯಪಿ ಉಚ್ಯತೆ ವ್ಯಾಕರಣೇನ ಕಿಂ ಕ್ರಿಯತೆ ಪ್ರಯುಕ್ತಾನಾಂ ಪದಾನಾಂ ನಿಷ್ಪಾದನಂ ಕ್ರಿಯತೆ ಅರ್ಥಾದೇ ಇದಾನೀಂ ಶಿಷ್ಟೈಃ ಋಷಿಭಿಃ ಕವಿಭಿಃ ಯಾನಿ ಯಾನಿ ಪದಾನಿ ಪ್ರಯುಕ್ತಾನಿ ತೇಷಾಂ ಸರ್ವೇಷಾಂ ವ್ಯಾಕರಣಂ ನಾಮ ನಿಷ್ಪಾದನಂ ಕ್ರಿಯತೆ ತಾನಿ ಪದಾನಿ ಕಥಂ ನಿಷ್ಪನ್ನಾನಿ ಇತಿ ಉಚ್ಯತೆ ತಥೈವ ಶಬ್ದಾಪಶಬ್ದ ವಿವೇಕಃ ಕಃ ಶಬ್ದಃ ಕಃ ಅಪಶಬ್ದಃ ಇತಿ ವಿವೇಕೋಪಿ ವ್ಯಾಕರಣೇನ ಕ್ರಿಯತೆ ಶಬ್ದಸ್ಯ ಕಿಂ ಸಾಧುರೂಪಂ ಕಿಂ ಅಸಾಧುರೂಪಂ ಇತ್ಯಪಿ ವ್ಯಾಕರಣದ್ವಾರಾ ಜ್ಞಾಯತೆ ನಿಷ್ಪಾದನಾದೇವ ಯೇ ಶಾಸ್ತ್ರದ್ವಾರಾ ನಿಷ್ಪಾದಯಿತುಂ ಶಕ್ಯಂತೆ ತೇ ಸಾಧವಃ ಶಬ್ದಾಃ ಯೇತು ತದ್ಭಿನ್ನತೆಯ ದೃಶ್ಯಂತೆ ತೇ ಅಸಾಧವ ಶಬ್ದಾಃ ಇತಿ ನಿರ್ಣಯಃ ಏವಂ ವ್ಯಾಕ್ರಿಯಂತೆ ನಿಷ್ಪಾದ್ಯಂತೆ ಶಬ್ದಾಃ ಅನೇನ ಇತಿ ವ್ಯಾಕರಣಂ ಏಕಂ ತು ಜ್ಞಾತವ್ಯಂ ವ್ಯಾಕರಣಂ ಇತ್ಯನೇನ ಶಬ್ದಾನಾಂ ಉತ್ಪತ್ತಿಃ ನ ಕ್ರಿಯತೆ ಉತ್ಪತ್ತಿಃ ವ್ಯುತ್ಪತ್ತಿಃ ಇತ್ಯಸ್ಯ ಭೇದಃ ಅಸ್ತಿ ವ್ಯುತ್ಪತ್ತಿಃ ಇತ್ಯಸ್ಯ ಏತದೇವ ನಿಷ್ಪಾದನಂ ಅಥವಾ ವ್ಯಾಕರಣಂ ಟು ದೇರ್ ಆರ್ ಆಲ್ರೆಡಿ ಎಕ್ಸಿಸ್ಟಿಂಗ್ ವರ್ಡ್ಸ್ to break them up and to see where they are coming from and how they have been derived is vyutpatti athava nishpadana athava vyakaranam sarvepi paryaya padani kintu utpattihi nama creation shabdana utpattihi vyakaranena na kriyate vyakarana is not for creating words and it's a very basic thing vyakaranena shabdana nutanataya utpadanam na kriyate ಯೇ ಶಬ್ದ ಪ್ರಯುಕ್ತ ತೈ ಪ್ರಯುಕ್ತ ಸ್ಪರ್ಶ ಯಹಿ ಶಬ್ದ ಪ್ರಯೋಗ ಕರೋಮಿ ಬಹಳ ಅಪಶಬ್ದ ಸ್ಯು ಅತ ಶಿಷ್ಟ ಪ್ರಯೋಗ ಉಚ್ಯತೆ ಕೇ ಶಿಷ್ಟ ಪಕ್ಷು ಇಂ ಯೇ ಋಷಯ ಮುನಯ ಕವಯ ಶಿಷ್ಟ ಕಥ್ಯಂತೆ ತೇಷಾಂ ಪ್ರಯೋಗೇ ಯೇ ಯೇ ಶಬ್ದ ದೃಶ್ಯಂತೆ ತೇಷಾಂ ಶಬ್ದಾನಾಂ ವ್ಯುತ್ಪಾದನಂ ವ್ಯಾಕರಣೇನ ಕ್ರಿಯತೆ ಪ್ರಯುಕ್ತಾನಾಂ ಇದಂ ಅನ್ವಾಖ್ಯಾನಂ ಇತಿ ಮಹಾಭಾಷ್ಯೆ ಭಾಷ್ಯಕಾರಃ ವದತಿ ಯೇ ಶಬ್ದಾಃ ಪ್ರಯುಕ್ತಾಃ ಶಿಷ್ಟೈಃ ತೇಷಾಂ ಅನ್ವಾಖ್ಯಾನಂ ದಿಸ್ ಇಸ್ ಜಸ್ಟ್ ಅ ಬ್ರೇಕ್ ಅಪ್ ಆಫ್ ದೋಸ್ ವರ್ಡ್ಸ್ ವಿಚ್ ಹ್ಯಾವ್ ಆಲ್ರೆಡಿ ಬೀನ್ ಯೂಸ್ಡ್ ಬೈ ಶಿಷ್ಟರ್ ಹೂ ಫಾಲ್ಸ್ ಇನ್ ಟು ದ ಕ್ಯಾಟಗರಿ ಆಫ್ ಶಿಷ್ಟರ್ ಪ್ರಾಬಬ್ಲಿ ಸೀ ಸಮ್ ಟೈಮ್ ಲೇಟರ್ ಶಿಷ್ಟಾಃ ಇತ್ಯಸ್ಯ ಲಕ್ಷಣಮಿ ದೀಯತೆ ಭಾಷ್ಯಕಾರೇಣ ಶಿಷ್ಟ ಪ್ರಯುಕ್ತಾನಾಂ ಪದಾನಾಂ ಇದಂ ಅನ್ವಾಖ್ಯಾನಂ natu bhutanam padanam utpatti. Very clear. From the time of Panininati, shabdanam utpadanartham sutrani nadarsitani. Ye shabdaha tadaiva vanmaye asam. Tesham, he just tried to fit them into their proper place and create a boundary and not to create new words. This is not the job of Vyakarana to create words, it does not do it. Adevochate prayoga sharanaha vinyakaranaha. Kadachit shastra adhyayana samaye drishyate prayogaha anyatha shastrena anyatha bodhyate. There could be times when the shastra says something and the actual prayoga scene is something different. There are cases where such a flashpoint occurs. So what is more important or what is taken as pramana? Pramanam kim? Vayyakaranam. They say that prayogaha eva pramanam. We always go by prayoga. Prayoga asti, shastram asti. If we are getting different results from applying sutras blindly and there is a different prayoga, always it is the prayoga which is foremost. Prayogam anusritteva shastra nirvahaha kriyate. Always, vyakaranena kim kriyate iti, ye shabdaha prayuktaha, tesham sadhutvam sadhetum eva prayatnaha. Appi ayam apashabdaha iti nirdharayitum vyakaranasya prayatnaha na. Kadapi na. Yaha shabdaha prayuktaha shishtaihi, saha shabdaha sadhuhu iti vaktum eva vyakaranasya prayatnaha sarvada. Vyakarana cannot and will not overrule prayoga at any point of time. Sarvada prayogasyaiva prabalyam prayogasharanaha vinyakaranaha. So this is also given as a solution in some cases where we do not know. There is a prayoga which is accepted, which means it is correct. Vyakaranena tasya vyakaranam atva nishpadanam katham karaniyam iti chintaniyam. Vyakaranam drishva prayogaha nakaraniyaha ityeva sarvesham abhimatam. Kintu eshu dinesha kim jatam ityukte asmabhihi vangmayasya jnanam tatha nasti sanskrita bhashayaha jnanam eva nasti ataha vayam kim kurmaha vyakaranam drishva ayam sasalva ayam asasalva iti nirnayam kurmaha kintu ye maharshayaha vaini kachayana patanjalayaha te lakshyam nama prayogam drishvaiva shastram rachitavantaha iti siddhantaha. Saha prayoga seva pravalyam rusu shastrasya shastram tu prayoganusari eva bhavet. Prayuktanam shabdanam nishpadanartham vyakarana shastram rachitam maharshivihi. तदस्तु व्याकरणशास्त्रस्य किं महत्त्वम् अथवा का गरिमा इति प्रश्नः. व्याकरणशास्त्रं तु बहु मुख्यशास्त्रमिति सर्वे अङ्गीकुर्वन्ति. तत्र बहवः प्रसिद्धाः सूक्तयः अपि सन्ति. तत्र किञ्चित् व्याकरणशास्त्रस्य गरिम्नः विषये नाम किं महत्त्वं व्याकरणशास्त्रस्य इति किञ्चिदिव पश्यामः. मुखं व्याकरणं स्मृतम् इति सर्वत्र उच्यते. वेदानां षड् अङ्गानि सन्ति. शिक्षा व्याकरण छंद निरुक्तम ज्योतिषम तथा कल्पश्चेद षडंगानि वेदस्याहु मनीषिणः. इति षडंगानि सन्ति. तेषु अंगेषु मुखम व्याकरणम् मुखस्थानकम् अंगम भवति व्याकरणम्. अतः तेन उच्यते व्याकरणेन उच्यतः मुखस्थानकम्. किन्तु तथैव प्रधानम् षट्सु अंगेषु व्याकरणम् इति उच्यते. इट इस वन ऑफ द मोस्ट इम्पोर्टेंट ऑफ Vedantas, because it is very important to have Vyakarana to preserve the Swarupa. Veda Swarupa Rakshanartham Vyakaranam Atyavashyakam. Vyakaranasya Prayojanani Kani Ittevi Mahabhashye Charchakrita Asti. Tatra Bhashyakarena Ajyate Rakshohagama Lakva Sandehaha Prayojanam. Raksha Iti Veda Raksha Vyakaranasya Prathamam Prayojanam Iti Bhashyakarena Dattam. तस्मात् वेदानां मुखरूपेण व्याकरणशास्त्रं विद्यते. प्रधानं च षट्स्वङ्गेषु व्याकरणम् एवं हि आनन्दवर्धनः वदति. प्रथमेन विद्वांसो वैयाकरणाः इति आनन्दवर्धनाचार्येण ध्वन्यालोके उक्तमस्ति. तत्र वैयाकरणः सुबीर प्रथमे विद्वांसः अत्यन्तं सम्माननीयः आदरणीयः विद्वांसः. किमर्थं व्याकरणस्य तादृशी उन्नतिः चेत् पाणादं पाणिनीयं च तत्त्वशास्त्रोपकारकम्. सर्वेषां शास्त्राणाम् अध्ययनार्थं शास्त्रद्वयस्य मूलभूतं वा ज्ञानम् अत्यावश्यकम्. एकं तु कणादं कणादरचितं तर्कशास्त्रम्, अपरं पाणिनीयं व्याकरणशास्त्रम्. तर्कशास्त्रं विना व्याकरणशास्त्रञ्च विना कस्यापि शास्त्रस्य अध्ययनं न सम्भवति. तर्कशास्त्रोपकारकं भवति पाणादं पाणिनीयं च. सः तत्रापि तर्कशास्त्रस्यापि अध्ययनात् प्राक् व्याकरणस्य अध्ययनं क्रियते एव. व्याकरण इस् द मोस्ट् बेसिक् आफ् आल् शास्त्र. एकः शब्दः सुष्ठु ज्ञातः सूत्रयुक्तः स्वर्गे लोके कामदुग् भवति इति महाभाष्यकारः वदति. एकः शब्दः, एक एव शब्दः सुष्ठु ज्ञातः सम्यक् तस्य ज्ञानमस्ति चेत् सुप्रयुक्तः तस्य उचिततया उचितकाले उचितरीत्या उचितरूपेण प्रयोगः क्रियते चेत् स्वर्गे लोके कामधुग् भवति. कामधेनुः इव अस्माकं सर्वान् कामान् पूरयितुं शक्ता या कामधेनुः तादृशी इव भवति. एकः शब्दः, एक एव शब्दः तस्य सम्यक् ज्ञानमस्ति, सम्यक् प्रयोगः अपि क्रियते चेत् कामधेनुरिव आचरति इति भाष्यकारस्य वचनं. शब्दज्ञानार्थं तु व्याकरणम् अत्यावश्यकम् इति सर्वविदितम्. स एव भाष्यकारः वदति, यस्तु प्रयुङ्क्ते कुशलान् विशेषे शब्दान् यथावद् व्यवहारकाले सोऽनन्तमाप्नोति द्वयं परत्र वाद्यो भविद्दुष्यति चापशब्दैः. This is again another quote from the Bhashyakara in the Padmashanika. The first chapter of Mahabharata is entirely devoted to such a regarding what is Vyakarana, what is the use of Vyakarana and some basic things related to Vyakarana. So he discusses in detail, he tells five mukhya prayojanani Vyakaranasya. अनन्तरम् आनुषङ्गिकप्रयोजनानि नम्बर् आफ् प्रयोजनान् यूसस् आफ् व्याकरण अगेन् अण्ड् अगेन्. सो दट् इस् नाट् यु केन् रीड् अबौट् दोस् एल्सेर् आल्सो, बट् वन् आफ् द थिङ्ग्स् हि सेस् इस् दिस्. यस्तु प्रयुङ्क्ते कुशलान् विशेषे शब्दान् यथावत् व्यवहारकाले, यः कुशलान् शब्दान् विशेषे व्यवहारकाले यथावत् प्रयुङ्क्ते कुशलान् शब्दान् विशिष्टान् शब्दान् विशेषे व्यवहारकाले, अर्थात् यस्मिन् काले यस्य शब्दस्य प्रयोगः अत्यन्तम् उचितः तादृशान् शब्दान् तस्मिन् सन्दर्भे सः प्रयुङ्क्ते, यः प्रयुङ्क्ते तदर्थम् उभयम् आवश्यकम्. व्याकरणस्य ज्ञानम् आवश्यकं, प्रयोगस्य प्रक्रियायाः ज्ञानम् आवश्यकं, रूपाणां ज्ञानम् आवश्यकं. तत्सर्वं यस्य अस्ति सः वाग्योगवित्. वाग्योगः इत्येव उच्यते पतञ्जलिना. सः वाग्योगवित् अनन्तं जयं प्राप्नोति परत्र. परत्र नाम परलोके, तेन इहलोकेऽपि परलोकेऽपि अनन्तं जयं प्राप्नोति. सर्वत्र सः जयी एव भवति अथवा जिष्णुर्भवति. अपशब्दैः दृश्यति च, किन्तु कश्चित् अपशब्दप्रयोगं करोति चेत्, असाधुशब्दप्रयोगं करोति चेत् तत् दोषाय भवति इति पतञ्जलिना उच्यते. व्याकरणशास्त्रम् अवश्यम् अध्येतव्यम्. अन्येपि श्लोकाः सन्ति, देर् आर् मेनी पाप्युलर् श्लोकास् विच् टेल्स् द इम्पार्टेन्स् आफ् व्याकरण. वन् इस् यद्यपि बहुनाधीशे तथापि पथपुत्रव्याकरणम् स्वजनश्रजनो माभू सकलशकलः सकृच्छकृत् इति कश्चन प्रसिद्धश्लोकः. पुत्र यद्यपि बहुनाधीशे, बहु अध्ययनं कर्तुं न शक्यते चेदपि व्याकरणं पठ, व्याकरणशास्त्रस्य अध्ययनं करोतु. किमर्थम्? स्वजनः श्वजनः माहूत्, स्वजनः स्वस्य जनः स्वजनः इत्यस्ति, तथैव श्वजनः इत्यपि अस्ति. श्वा इत्यस्य शुनकः तस्य अर्थः. स्वजनः नाम बान्धवाः इत्यस्य स्थाने श्वजनः इति प्रयोगः क्रियते चेत् महान् अर्थव्यत्ययः विद्यते. एवमेव सकलः शकलः, सकलः नाम पूर्णः इत्यर्थः, शकलः नाम कश्चन भागः इत्यर्थः. अर्थे साक्षात् वैरुध्यं दृश्यते एकस्य वर्णस्य व्यत्ययेन. सकलः शकलः, एवमेव सकृत् शकृत्. सकृत् इत्यस्य एकवारम् इत्यर्थः, शकृत् इत्यस्य मलम् इत्यर्थः. सो there is a huge difference which is caused even when you are changing a single letter. तदर्थम् उच्चारणस्य एवम् अर्थज्ञानस्य व्याकरणज्ञानस्य च प्राप्तौ सर्वैः प्रयत्नः करणीयः इति उच्यते.